अध अजंत नपुंसकलिंग प्रकरणम् तत्रादौ ज्ञान शब्दात् प्रथमैकवचने सुप्रत्यये ज्ञान सु इति स्थिते स्वमोर् नपुंसकादिचनेन सुप्रत्यये लुकि प्राप्ते तं बाधित्वा अतोम् अतः इति पञ्चमी अंगस्य इत्यधिक्रियते तस्य च पञ्चम्या विपरिणामः अतः इति तस्य विशेषणं तेन तदन्तविधिः स्वमोर् नपुंसकादिति अनुवर्तते एवञ्च अतोऽङ्गात् क्लीबात् स्वमोः अंश्यात् नपुंसकलिङ्गे विद्यमानात् ह्रस्वाकारान्तात् अङ्गात् परयोः सु अम् प्रत्ययोः अमादेशो भवति चर्थः अत्र ज्ञान इति ह्रस्वाकारान्तमङ्गम् नपुंसकलिङ्गे च विद्यते ततः परस्य सोः अमादेशे ज्ञान अम् इति स्थिते अमिपूर्वः इत्यनेन पूर्वरूपे ज्ञानम् इति रूपं भवति सम्बुद्धौ हे ज्ञान सु इति स्थिते तत्र अतोम् इत्यनेन अमादेशे पूर्वरूपे च हे ज्ञानम् इति जाते एङ्ह्रस्वात् सम्बुद्धेः इति सूत्रेण सम्बुद्ध्यवयवस्य मकारस्य लोपे हे ज्ञान इति रूपं भवति ज्ञाने ज्ञानशब्दात् प्रथमाद्विवचने औ प्रत्यये ज्ञान औ इति स्थिते नपुंसकाच्च यशस्सी इत्यतः सी इत्यनुवर्तते औङ्ग आपः इत्यतः औङ्गः इत्यनुवर्तते एवञ्च क्लीबात् औङ्गः सी स्यात् नपुंसकलिङ्गकात् शब्दात् परस्य औङ्गः सी इत्यादेशो भवति ज्ञान औ इति स्थिते ज्ञान इति नपुंसकलिङ्गात् शब्दात् परस्य औङ्गः सी इत्यादेशे सी इत्यादेशे ज्ञान ई इति जाते अत्र सी प्रत्यये परतः ज्ञानशब्दस्य यचिभम् इति सूत्रेण भसंज्ञा भवति भसंज्ञायाम् अत्र यस्येति च इश्च अश्च यः तस्य यस्य यस्य नाम इवर्ण अवर्णयोः लोपः स्यात् नस्तद्धिते इच्छतः तद्धिते इत्यनुवर्तते लोपो व्योर्वलि इच्छतः लोपः इत्यनुवर्तते भस्य इत्यधिक्रियते एवञ्च भस्य इवर्ण अवर्णयोः लोपः स्यात् ईकारे तद्धिते च परतः भसंज्ञकस्य अङ्गस्य इकार अकारयोः लोपो भवति ईकारे तद्धितप्रत्यये च परतः नाम भसंज्ञके अङ्गे विद्यमानयोः इकार अकारयोः ईकारे तद्धितप्रत्यये च परतः लोपो भवति चर्थः अत्र ज्ञान इति भसंज्ञकम् अङ्गम् तस्य ई इति ईकारः परे विद्यते अतः तत्र विद्यमानस्य अकारस्य लोपे प्राप्ते औङ्गस्यां प्रतिषेधो वाच्यः औङ्स्थानिके शी प्रत्यये परतः लोपस्य प्रतिषेधो वक्तव्यः औङः यः शी तस्मिन् परतः लोपस्य प्रतिषेधो वक्तव्यः अत्र औङ्स्थानिकः शी प्रत्ययः तस्मिन् परतः अकारस्य लोपो न भवति तथा च ज्ञान ई इति स्थिते आद्गुणे ज्ञाने इति रूपं भवति ज्ञानानि ज्ञानशब्दात् प्रथमा बहुवचने जस् प्रत्यये ज्ञान अस् इति स्थिते जस्य शोषिः नपुंसकादिचनुवर्तते एवञ्च क्लीबात् अनयोः शिः स्यात् नपुंसकलिङ्गात् अङ्गात् परयोः जस् शस् प्रत्यययोः स्थाने शि इत्यादेशो भवति ज्ञान अस् इत्यत्र ज्ञान इति नपुंसकलिङ्गकात् शब्दात् परस्य जसः स्थाने शि इत्यादेशे शकारस्य इत्संज्ञायां लोपे च ज्ञान इ इति स्थिते अत्र इ इति शि सर्वनामस्थानम् शि इति सर्वनामस्थानसंज्ञकं भवति श्री इच्छेतत् उक्त संज्ञं भवति श्री इच्छस्य सर्वनाम स्थान संज्ञा भवति नपुंसकलिंगे सर्वनाम स्थान संज्ञा नास्ति अधापि श्री इच्छस्य विशेषतः सर्वनाम स्थान संज्ञा विहिता एवं च अत्र श्री इच्छस्य सर्वनाम स्थान संज्ञायां नपुंसकस्य जलचः अंगस्य इत्यधिक्रियते जलचः इति तस्य विशेषणं तदंत विधि नाम जलंतस्य अजंतस्य च अंगस्य नपुंसकात् इत्यनुवर्तते तस्य च षष्ठ्या विपरिणामः इति तो नुम धातोः इच्छतः नुम इत्यनुवर्तते उगितचाम सर्वनामस्थाने अधातोः इति सूत्रात् सर्वनामस्थाने इच्छनुवर्तते एवञ्च जलन्तस्य अजन्तस्य च क्लीबस्य नुमागमः स्यात् जलन्तस्य अजन्तस्य च क्लीबस्य नुमागमः स्यात् सर्वनामस्थाने परे सर्वनामस्थाने परतः जलन्तस्य अजन्तस्य च नपुंसकलिङ्गशब्दस्य नुमागमो भवति चर्थः अत्र ज्ञान इति विज्ञते अत्र ज्ञान इति अजन्तम् अंगम् नपुंसकलिङ्गकञ्च तस्य इति सर्वनामस्थाने परे नुमागमो भवति नुमे उकारमकारयोः इत्संज्ञायां लोपे च मित्वात् अन्त्यादचः परे ज्ञानन इति जाते ज्ञानन इति जाते सर्वनामस्थाने च सम्बुद्धौ इच्छनेन उपधा दीर्घे ज्ञानानि इति रूपं भवति पुनस्तद्वत् द्वितीया विभक्तौ अपि ज्ञानं ज्ञाने ज्ञानानि इत्येव शेषं रामवत् एवं धनवन फलादयः अनन्तरं कतरशब्दः किं शब्दात् दतरप्रत्यये कतर इति भवति एवञ्च कतरशब्दात् नपुंसकलिङ्गे प्रथमैकवचने सुप्रत्यये कतर सु इति स्थिते अत्र अतोम् इति सूत्रेण अमादेशे प्राप्ते तं बाधित्वा अदुड्डतरादिभ्यः पञ्चभ्यः अदुड्डतरादिभ्यः इति छेदः एभ्यः क्लीबेभ्यः स्वमोः अदुडादेशः स्यात् दतरादिभ्यः पञ्चभ्यः दतर दतम अन्य अन्यतर इतर एभ्यः परस्य नपुंसकलिङ्गे विद्यमानेभ्यः एतदन्तेभ्यः परस्य नाम दतर दतम प्रत्ययान्तेभ्यः अन्य अन्यतर इतर शब्देभ्यः च परयोः सु अम् प्रत्ययोः अदुड् इत्यादेशो भवति अत्र कतर इति खलु विद्यते डतर प्रत्ययान्तः तस्मात् परस्य सुप्रत्ययस्य स्थाने अदुड् इत्यादेशो भवति अदुड् इत्यत्र डकारस्य इत्संज्ञायां लोपे च कतर अद् इति स्थिते अस्य च डित्वात् अद् इत्यस्य डित्वेन तेः दिति भस्य टेर्लोपः स्यात् दिति परे भसंज्ञकस्य अंगस्य टेः लोपो भवति अद् इच्छस्मिन् परतः कतर इच्छस्य भसंज्ञा विच्यते एवञ्च अदुड् इति दिति परे अद् इति दिति परे कतर इति भसंज्ञकस्य अंगस्य टेः अकारस्य लोपे कतरद् इति जाते वावसाने इति सूत्रेण वैकल्पिके चर्त्वे कतरत् कतरद् पुनः कतरे कतराणि ज्ञाने ज्ञानानि इति वत् भस्य इति किम् भसंज्ञकस्य डिति परे भस्य टेर्लोपः स्यात् इत्युक्तम् दिति परे भसंज्ञकः यः शब्दः तत्र विद्यमानस्य टेर्लोपो भवति इत्यर्थः अत एव पञ्चमः इत्यत्र पञ्चम शब्दात् डट् प्रत्ययो भवति मडागमश्च भवति पञ्चम शब्दात् डट् प्रत्ययो भवति मडागमश्च भवति तेन पञ्चन् म इति स्थिते अत्र म इत्यस्मिन् परतः पञ्चन् इत्यस्य भसंज्ञा नास्ति, भसंज्ञायाः अभावात् न तत्र टेर्लोपः, टिरोपाभावे पञ्चन् म इति स्थिते न लोपः प्रातिपदिकान्तस्य इत्यनेन नकारस्य लोपे पञ्चमः इति रूपं भवति इत्यर्थः। तेः लुप्तत्वात् प्रथमयोः पूर्वसवर्णः इति पूर्वसवर्णदीर्घः एङ्घ्रस्वादिति सम्बुद्धिलोपश्च न भवति। कतरशब्दात् सुप्रत्यये कतरा सु इति स्थिते, अदिडादेः कतरा अद् इति स्थिते, कतरा अद् इति स्थिते, कतरा अद् इति स्थिते प्रथमयोः पूर्वसवर्णः इत्यनेन पूर्वसवर्णदीर्घः स्यात्। कतर इत्यस्य अदिति प्रथमाविभक्तिसम्बन्धि अच् परे विद्यते, अतः पूर्वसवर्णदीर्घः प्राप्नोति। एवमेव हेकतरद् इत्यत्रापि हेकतर अद् इत्यत्रापि, तत्र किं भवति एङ्घ्रस्वात्सम्बुद्धेः इत्यनेन सम्बुद्धेः लोपः स्यात्। अत्र टेः लुप्तत्वात् टिलोपो भवति, अदिडादेशे टिलोपो भवति, टिलोपो नाम अकारस्य लोपो भवति। यदि अकारस्य लोपः तदि प्रथमयोः पूर्वसवर्णः इत्यनेन अतः न पूर्वसवर्णदीर्घः। टेः लुप्तत्वात् अत्र ह्रस्वान्तम् अङ्गं नास्ति, यदङ्गं कतर् इति तत् न ह्रस्वान्तम्, यत् ह्रस्वान्तं कतर इति तन्नाङ्गम्, एवञ्च तत्र ह्रस्वान्तस्य अङ्गस्य अभावात् ततः प्रहृश्य सोः लोपो न भवति, नाम अदिड् इत्यत्र इत्यस्य लोपो न भवति इत्यर्थः। हे कतरत् पुनस्तद्वत् शेषं पुंवत्, एवमेव कतमत् इतरत् अन्यत् अन्यतरत्। अन्यतर शब्दात् सुप्रत्यये अदिडादेशे अन्यतरत् इति रूपं भवति, अन्यतम शब्दात् सुप्रत्यये अन्यतम शब्दात् अन्यतम स इत्यत्र, अन्यतम शब्दस्य डतरादिषु पञ्चसु अभावात् ततः परस्य सुप्रत्ययस्य अदिडादेशो न भवति। अत्र अन्यशब्दात् डतरप्रत्यये अन्यतर इति, अन्यशब्दात् डतमप्रत्यये अन्यतम इति भवतीति न मन्तव्यम्। अन्यतर अन्यतमशब्दौ अव्युत्पन्नौ तथा स्वभावात् द्विबहुविषये निर्धारणे वर्तेते इत्युक्तम्। अन्यतर अन्यतमशब्दौ न डतरडतमप्रत्ययान्तौ किन्तु अव्युत्पन्नौ शब्दौ, एवञ्च तत्र अन्यतमशब्दस्य अत्र डतरादिषु पञ्चसु पाठाभावात् न तत्र अदिडादेशः, एवञ्च अन्यतमम् इत्येव रूपं भवति, अन्यतमत् इति रूपं न भवति इत्यर्थः। अन्यतमशब्दस्य तु अन्यतममित्येव एकतरात् प्रतिषेधो वक्तव्यः। एकशब्दात् डतरप्रत्यये एकतरासु इति स्थिते एकतरशब्दस्य डतरप्रत्ययान्तत्वेन ततः परस्य सोः अदडादेशः प्राप्तः। अदडादेशे प्राप्ते एकतरात् प्रतिषेधो वक्तव्यः, एकतरशब्दात् परयोः स्वमोः अदडादेशप्रतिषेधो वक्तव्यः, तत्र अदडादेशः न भवति। तथा च एकतरासु इति स्थिते अतोमिच्चनेन अमादेशे अमिपूर्वः इति पूर्वरूपे च एकतरम्
अजरशब्दः विद्यते। अजरशब्दात् प्रथम नपुंसकलिङ्गे प्रथम एकवचने सुप्रत्यये कृते अजरस इति स्थिते, अतोऽङ्गात् क्लीबात् स्वमोह अंश्य, ह्रस्वाकारान्तात् नपुंसकलिङ्गात् शब्दात् परस्य सुप्रत्ययस्य अमादेशो भवति इत्युक्तम्। अजर इति ह्रस्वाकारान्तः नपुंसकलिङ्गकः शब्दः, तस्मात् परस्य सुप्रत्ययस्य अमादेशे कृते अजर अम् इति स्थिते నామి పూర్వ ఇచ్చనైన పూర్వరూపేకృతే అజరం ఇది రూపం భవతి సామాన్యత. పరంతు అజర అం ఇచ్చత సుప్రత్యేశ అమాదేశే కృతే అమితి అజాది విభక్తి ఖలు అజాదో విభక్తౌ పరతః జరాయాః జరసంజతరస్య జరాయాః అజాదో విభక్తౌ పరతః జరసాదేశో భవతి ఇత్యుక్తం. అత్ర అజర శబ్దః విద్యతే పశ్య అమితి అజాదిః విభక్తిః పరే విద్యతే అతః జరసాదేశః కుతో వా న భవతి ఇది ప్రశ్నే. సో రమాదేశే సన్నిపాత పరిభాషయా న జరస్ ఉక్తం పూర్వమేవ సన్నిపాత లక్షణ విధి అనిమిత్తం తద్విఘాతస్య ద్వయో సంబంధం ఆశ్రిత్య ప్రవృత్త విధి తత్సంబంధ విఘాతకస్య నిమిత్తం న భవతి. అత్ర అదంతం అంగం ఆశ్రిత్య ప్రవృత్త అమాదేశ అలా తోంగాత్పరస్య ఖలు సోహ అమాదేశ హ్రస్వాకారాంతం అంగం ఆశ్రిత్య ప్రవృత్త అమాదేశ హ్రస్వాంతత్వ విఘాతకస్య జరసాదేశస్య నిమిత్తం నభవతి. ఏమంచ యది నిమిత్తం నభవతి తర్హి తత్ర ఆజాది విభక్తి నాస్త్యేవ అతః న జరస్ అతేవ అజరం ఇచ్చేవ రూపం. పరిభాషాయాః అనిత్యత్వం తు న సర్వత్ర సన్నిపాత పరిభాష అనిత్యా ఇది సర్వత్ర వక్తుం శక్యతే అత అత్ర సన్నిపాత పరిభాషయా న జరస్ తదా చ అజర అం ఇతి స్థితే పూర్వరూపే కృతే అజరం అజరే అజర ఔ అజర ఔ అజర ఔ ఇచ్చట్ర కిం భవతి నపుంసకాచ్య క్లీబా దొంగ శీష్య
ఇతి స్థితే అజర శబ్దస్య ఈ ఇతి అజాదిహి విభక్తి పరే విద్యతే అతః జరాయా జరసన్యతరస్యామిచ్చనేన జరసాదేశే అజరసి ఇతి రూపం భవతి. జరసాదేశస్య వైకల్పికత్వేన తదభావపక్షే అజర ఈ ఇచ్చత్ర ఆద్గుణే అజరే ఇతి రూపం భవతి.
అజరాంసి అజరాణి అజర శబ్దాత్ అజర శబ్దాత్ ప్రథమ బహువచనే జస్ ప్రత్యేకతే అజర అస్ ఇది ఖలు విద్యతే అజర అస్ ఇచ్చత్ర కిం భవతి జశశోషి ఇచ్చనేన సి ఇచ్చాదేశ అజర ఇ అత్ర ఇ ఇది అజాది విభక్తి పరే విద్యతే అతః అత్ర జరసాదేశో భవత్ అత్ర సన్నిపాత పరిభాష న ప్రవర్తతే కుతః నపుంసకలింగం జశం ఖలు ఆశ్రిత్య ప్రవృత్త జరసాదేశి ఇచ్చాదేశ తత్ర శిప్రత్యయేన న కశ్యాపి హానిరస్తి నపుంసకత్వం నహి గచ్చతి. ఏవంచ తత్ర సన్నిపాత పరిభాషాయాః అవకాశ ఏవ నాస్తి అతః ఈ ఇది అజాదౌ ప్రత్యయే పరే జరసాదేశో భవతి. జరసాదేశే కృతే అజరస్ ఈ ఇది భవతి అజరస్ ఈ ఇది స్థితే అజరస్ ఈ ఇచ్చత్ర నపుంసకస్య జలతః జలంతస్య అజంతస్య చ క్లీబస్య నుం స్యాత్ అచి సర్వనామస్థానే పరే శ్రీ సర్వనామస్థానమిత్యుక్తం అజాదౌ సర్వనామస్థానే పరే జలంతస్య అజంతస్య చ నపుంసకలింగ శబ్దస్య కిం భవతి నుమాగమో భవతి. అజరస్ ఇది జలంతం అంగం తతః ఈ ఇది సర్వనామస్థానం పరే విద్యతే అతః తత్ర నుమాగమః నుమి ఉకారమకార్యో సంజ్ఞాయాం లోపే చ న ఇతి విద్యతే తస్య మిత్వాతే అంచాదచ పదే భవతి. అత్ర అంచం అచ అజర ఇచ్చత్ర అకారః తతః పరే భవతి తదవయవ సన్నేవ తతః పరే భవతి. ఏవంచ అజరన్ స ఈ ఇతి విద్యతే అజరన్ స ఈ ఇతి స్థితే సాంతి శాంత మహత సంయోగస్య శాంత మహత సంయోగస్య శాంత సంయోగస్య మహతశ్చ యో నకార తస్య ఉపధాయ దీర్ఘ స్యా అసంబుద్ధౌ సర్వనామస్థానే పరే. శాంత సంయోగస్య మహతశ్చయో నకారః. శాంత సంయోగే విద్యమానః యః నకారః, మహచ్ఛబ్దే చ విద్యమానః యః నకారః, తస్య ఉపధాయాః అసంబుద్ధౌ సర్వనామస్థానే పరే దీర్ఘో భవతి ఇత్యర్థః. అత్ర అజరనస్ ఇతి ఖలు విద్యతే, నస్ ఇతి సకారాంత సంయోగః విద్యతే. తత్ర నకారస్య ఉపధా కిం భవతి అజర ఇత్యత్ర రేఫోత్రవర్తి అకారః. ఏమంచ తస్య దీర్ఘే కృతే అజరానసి అజరానసి ఇత్యత్ర నశ్చ పదాంతస్య ఝలి, నశ్య మశ్య చ పదాంతస్య ఝల్య అనుస్వారః. అపదాంతస్య నకారస్య సి ఇతి సకారే ఝలి పరే నకారస్య అనుస్వారే కృతే అజరాంసి ఇతి. జరసాదేశస్య వైకల్పికత్వేన, జరసాదేశస్య వైకల్పికత్వేన జరసాదేశాభావే అజర అస్ ఇతి స్థితే జశశోషి చనేన సి ఇత్యాదేశే కృతే అజర ఇతి స్థితే. అజర ఇతి అజంతమంగం, అజర ఇతి అజంతమంగం, తస్య ఇతి సర్వనామస్థానం పరే విద్యతే. అతః కిం భవతి తత్ర నపుంసకస్య ఝలచ అజంతం క్లీబం, అతః తస్య నుమాగమ, నుమాగమే కృతే అజరన్ ఇ. సర్వనామస్థానే చ సంబుద్ధౌ ఇచ్చనేన సూత్రేణ దీర్ఘే అజరాన్ ఇ నత్వే కృతే అజరాణి.
అజర శబ్దాత్ ద్వితీయైకవచనె అం ప్రత్యయే అజర అం ఇతి స్థితే. అత్ర స్వమోర్నపుంసకాదితి లుకి ప్రాప్తే తస్య బాధకః అమాదేశః, తమపి బాధిత్వా పరత్వాత్ జరసాదేశో భవతి. జరసాదేశే కృతే అజరస్ అం ఇతి భవతి. అత్ర పునః లుక్ న భవతి, సన్నిపాత పరిభాషయా న లుక్. అత్ర జరసాదేశః అజాది విభక్తిం ఆశ్రిత్య భవతి. యది అమః లుక్ భవతి తర్హి అజాదేః విభక్తేః విఘాతో భవతి. తద్విఘాతకస్య లుకః జరసాదేశః నిమిత్తం న భవతి. అతః జరసాదేశే కృతే పునః లుక్ న భవతి. తేన అజరసం అజరం, అజరసి అజరే, అజరాంసి అజరాణి ఇతి భవతి. పునః అజరసం అజరం, అజరే అజరసి, అజరాంసి అజరాణి శేషం పుంబత్.
పద్దన్నో మాసు సన్యోషన్ దోషన్ యకుం ఛకన్ నుదన్నాసం ఛస్ ప్రభృతిషు ఇతి సూత్రముక్తం. పాద దంత నాసిక మాస హృదయ ఇత్యాదీనాం శబ్దానాం క్రమాత్ తద్ దత్ ఇత్యాదయః ఆదేశాః భవంతి చుక్తం. ఏమంచ అత్ర హృదయ శబ్ద, హృదయ శబ్దస్య నపుంసకలింగే హృదయ సు ఇతి స్థితే అతోమిచ్చనేన అమాదేశే కృతే హృదయ అం అమిపూర్వః హృదయం హృదయే హృదయాని. పునః హృదయం హృదయే హృంది హృదయాని ఇతి రూపద్వయం భవతి. హృంది హృదయాని నామ హృదయ శబ్దాత్ ద్వితీయ బహువచనే శస్ ప్రత్యయే కృతే హృదయ అస్ ఇతి స్థితే జస్య శోషి ఇచ్చనేన సి ఇత్యాదేశే కృతే హృదయ ఇ ఇతి స్థితే. ఇ ఇతి ఇత్యస్య ఇ ఇతి సర్వనామస్థానం వా? అస్తు, ఇ ఇతి సర్వనామస్థానమేవ. అనంతరం కిం భవతి హృదయ ఇ ఇత్యత్ర పాద పద్దన్నో మాసు హృషసన్యోషం దోషన్యకుం ఛకన్నుదం నాసం ఛస్ ప్రభృతిషు ఇత్యాదినా సూత్రేణ హృదయ శబ్దస్య హృత్ ఇత్యాదేశో భవతి. హృదయ శబ్దస్య హృదాదేశే కృతే హృద్ ఇ ఇతి స్థితే. హృద్ ఇ ఇత్యత్ర నపుంసకస్య ఝలచః, ఝలంతస్య అజంతస్య క్లీపస్య నుం స్యాత్. హృద్ ఇతి ఝలంతమంగం, తస్య ఇ ఇతి సర్వనామస్థానం పరే విద్యతే. అతః తస్య కిం భవతి నుమాగమో భవతి. సర్వనామస్థాన సంజ్ఞ పంచవచనానామేవ ఖలు, స్వాది పంచవచనాన్యేవ ఖలు సర్వనామస్థానాన్ని. नपुंसक लिंगे सर्वनाम स्थान संज्ञा नास्ति, परंतु केवलम सी इत्यस्यैव सर्वनाम स्थानत्वम् उक्तम्। अतः शस्तानिकस्य सी इत्यस्यापि सर्वनाम स्थानत्वात् किं भवति नपुंसकस्य जलचः इच्छनेन गुमागम मिमि न सच मित्वात् अञ्चादचः परे भवति। अत्र अञ्चम अच हृद् इच्छत ऋकारः तस्मात् परे न इच्छादेशे कृते हृन्दि
नश्चापदान्तस्य जलि इच्छनेन अनुस्वारे तस्य अनुस्वारस्य यै परसवर्णः इच्छनेन परसवर्णे च हृन्दि इति रूपं भवति हृदिच्चादेशाभावे हृदयानि इति रूपम्
हृदयेन हृदा हृदयाभ्यां हृद्भ्याम् इत्यादि। उदकशब्दः उदकम् उदके उदकानि उदकम् उदके उदानि उदकानि इति नाम उदकशब्दात् द्वितीया बहुवचने शस्प्रत्यये कृते उदक अस् इति स्थिते जस्यशोषिः इच्छनेन सि इच्छादेशे उदक इति स्थिते उदकशब्दस्य तेन उदन्नादेशः उक्तः। पद्धन्नो मास हृससंयोषन् दोषन् यकुन् छकुन् नुदन्नासं छस्प्रभृतिषु इत्यनेन उदकशब्दस्य उदन् इत्यादेशो विहितः। एवञ्च अत्र उदकशब्दस्य द्वितीया बहुवचने उदन् इत्यादेशे कृते उदन् इति स्थिते सर्वनामस्थाने च सम्बुद्धो इत्यनेन दीर्घे कृते उदानि उदकेन उद्ना इति रूपं भवति उदकेन उद्ना इति रूपं भवति। उदक शब्देश्च तृतीयेकवचने ताप्रत्यये उदक अ इति स्थिते उदक शब्दस्य उदन्नादेशे उदन् अ इति स्थिते अल्लोपो नः अङ्गावयवः असर्वनामस्थानयजादिस्वादिपरः यः अन् तस्य अकारस्य लोपः स्यात्। अङ्गावयवस्य अनो अकारस्य सर्वनामस्थानभिन्न अजादिस्वादिषु परतः अकारस्य लोपो भवति इत्यर्थः। अत्र उदन्निति अङ्गं खलु तदभय एव अन् तस्य अ इति सर्वनामस्थानभिन्न अजादिः स्वादिः परे विद्यते अतः अकारस्य लोपे कृते उद्ना उदभ्याम् इति रूपं भवति उदन् भ्याम् एकं रूपम् उद्ना उदकेन उदभ्याम् उदकाभ्याम् इति उदकाभ्याम् इत्यत्र उदकाभ्यां सुपिचा इत्यनेन दीर्घे उदकाभ्याम् इति रूपं भवत्येव। परन्तु उदन्नादेशे कृते उदन् भ्याम् इत्यत्र नलोपः प्रभ्यामि परे उदन् इत्यस्य पदसंज्ञा विद्यते स्वादिष्वसर्वनामस्थाने इत्यनेन सूत्रेण भ्यामि परे उदक उदन् शब्दस्य पदसंज्ञा विद्यते। एवञ्च पदान्तत्वेन नकारस्य नलोपः प्रातिपदिकान्तस्य इत्यनेन नकारस्य लोपे कृते उदभ्याम् मेलने उदभ्याम् अत्र उदभ्याम् इत्यनेन इत्यत्र सुपि च इत्यनेन दीर्घः स्यात् भ्याम् इति ययादिः सुप् परे विद्यते उद इति ह्रस्वाकारान्तमङ्गं सुपि च इत्यनेन दीर्घः स्यात् दीर्घः न भवति दीर्घे कर्तव्ये नलोपस्य असिद्धत्वात् दीर्घे कर्तव्ये सुबिचा इत्यनेन दीर्घे कर्तव्ये नलोपप्रादिकान्तस्य सूत्रेण विधीयमानः नकारलोपः असिद्धो भवति यज्जसिद्धा तर्हि ह्रस्वान्तमङ्गं न भवति अतः न तत्र दीर्घः उदभ्याम् इत्यादि यूषभ्याम् इति एकः शब्दः आगतः अस्माकं प्रथमम् तत्रोक्तम् नलोपश्य असिद्धत्वात् आत्वम् ऐत्वं जस्त्वञ्च एत्वञ्च न इति तत्र कुत्रापि उक्तम् अस्तु अपि उदभ्याम् इत्यत्र नलोपश्य असिद्धत्वात् न दीर्घः अनन्तरम् आसानि आस्य शब्दस्य आसन्नादेशः उदानि इत्युवत् आसानि
मांसि मांसा मान्भ्याम् इत्यादि
मान्भ्याम् मानभ्याम इति भवति मांसोभ्याम मांस शब्द मांस शब्द से मांस इत्यादेश भवति एवं मांसोभ्याम इत्यत्र संयोगान्तस्य लोपः इत्यनेन सकारस्य लोपो भवति सकारस्य लोपे मानभ्याम इति भवति मांस शब्द मांस शब्द नाम माकार मा इच्छनंतरम अनुस्वार ततः परे सकार ततः भ्याम प्रत्यय संयोगांत श्लोप इच्छनेन सकार श्लोपो भवति लोपे मानभ्याम इति जाति तब नकार कुत्र आगता है